तच्चिन्ता नास्ति, अहं द्विजेव कृतवती, पुनः किमर्थं वदतु किल अग्रे
इदानीं का वदति लेट्मि सी हू इस् देयर् राजी नमस्ते राजी
मां
I don't see anybody, any other chat posted. Astu, bhagini vadatu, Raji bhagini, Raji Chandra. Raji Chandra bhagini vadatu. Namaste.
Namaste.
If I keep on doing this muting and unmuting, the class time is gone. You will not learn anything fresh. Kripya mute Kurvanshu Sarve.
Malika.
मालिका
उपविशत् वा नमस्ते भगिनि बालिका उपविशति बालिका खादति बालिका पिबति बालिका पश्यति बालिका उपविशत्वा खादित्वा पिबत्वा पश्यति रामः धावयित्वा विद्यालयं गच्छति
धावित्वा तत्र क्रियापदकोष्टकमस्ति किल क्रियापदकोष्टकम् एकवारं पश्यतु धावित्वा उत्तमम् उत्तमम् इदानीं म्यूट् करोतु अनन्तरं धन्यवादः म्यूट् करोतु स्वयमेव म्यूट् करोतु इदानीं कार्तिक् महोदय अन्म्यूट् कृत्वा वदतु कृपया कार्तिक् महोदय
नमस्ते
नमस्ते
मम नाम कार्तिकेयः
उत्तमम्
अहं श्रोत्रं श्रुतवान् अहं कार्यालयं गतितवान्
कार्यालयं किं कृतवान्
गतितवान्
कार्यालयं गतवान्
अहं प्रयाणं कृतवान्
उत्तमम् उत्तमम्
अहं गायितवान्
अहं गीतवान् इदानीं किञ्चित् बालाः कथं कुर्वन्ति बालाः लघुबालाः कथं कुर्वन्ति प्रथमं लघु लघुवाक्यानि वदन्ति किल तदा प्रथमं लघु लघुवाक्यानि भवान् उक्तवान् सम्यक् एव अहं कार्यालयं गतवान् इति परन्तु अहं गतवान् तथैव करोतु इदानीं सो अहं वदामि हौ हौ वि आर् गोयिङ्ग् टु मेक् सेण्टेन्स् अहं पाठिष्यामि परन्तु इदानीम् अहं गतवान् वाक्पदद्वयमेव चिनोतु अग्रे वयम् इतोपि दीर्घवाक्यानि कुर्मः अस्तु उत्तमम् इदानीम् आर्या भगिनी भवान् म्यूट् करोतु आर्या भगिनी अन्म्यूट् करोतु आर्या ओ नेक्स्ट् सुजना भगिनी अपि उक्तवती सुजना भगिनी नेक्स्ट् ओके
सः सः पठित्वा क्रीडित्वा भूत्वा लिखित्वा खादति
उत्तमम् सुजना भगिनी वदतु ओ सुजना बालिका वा अस्तु वदतु
अहं पुस्तकं पठामि.
उत्तमम्.
अहं कदलीफलं खादामि.
उत्तमं. कदलीफलं खादामि तथा दर्शयितुं. यस् उत्तमम्. हा सो वयं जानीमः कदलीफलं किम् इति. हा उत्तमम्. हा अस्तु अग्रे.
अहं क्षीरं पिबामि.
क्षीरं. क्षीरम् इत्युक्ते दुग्धं. दुग्धं वा जलं वा भवती किं दुग्धं पिबति वा जलं पिबति वा?
दुग्धं पिबति.
उत्तमं. क्षीरं पिबामि. अनन्तरम्
अहं गायामि.
आहा गायामि. उत्तमं. महती भगिनी उत्तमम्. उत्तमं बालिका. उत्तमं सुजना बालिका. उत्तमं महती.
अहं पठित्वा स्मरित्वा लिखित्वा वदित्वा गच्छति.
वदित्वा नास्ति उक्त्वा.
उक्त्वा गच्छति.
उक्त्वा गच्छामि. अहं गच्छामि.
गच्छामि.
अस्तु इतोपि कोऽपि अस्ति वा?
मम नाम गीता. नन्दिनी पिबति. नन्दिनी त्यजति. नन्दिनी पश्यति. नन्दिनी ददाति. नन्दिनी क्रीडति. बालिका पतिवती. बालिका
एकक्षणम्. नन्दिनी विषये पञ्चवाक्यम् उक्तवती किल, तत् एकमेव वाक्यं कृत्वा वक्तुं शक्नोति वा? जस्ट् वन् सेण्टेन्स् अबौट् नन्दिनी. भवती पञ्चवाक्यम् उक्तवती किल, एकं वाक्यं करोतु.
नन्दिनी पुस्तकं ददति. नन्दिनी पुस्तकं ददति. नन्दिनी लेखनी लिखति.
न एकक्षणम् एकक्षणम्. फस्ट् यु सेड् फैव् सेण्टेन्सस् किल. नन्दिनी नन्दिनी विषये नन्दिनी पिबति. अनन्तरं किम् उक्तवती? नन्दिनी
त्यजति.
त्यजति.
नन्दिनी पश्यति.
पश्यति. उत्तमम्. अनन्तरं
नन्दिनी उपविशति.
उपविशति. अनन्तरं पञ्चमं ददाति.
नन्दिनी ददाति.
ददाति न ददाति. नन्दिनी पिबति. नन्दिनी त्यजति. नन्दिनी पश्यति. नन्दिनी उपविशति.
नन्दिनी ददाति.
पञ्चवाक्यानि अस्ति. एतत् पञ्चवाक्यानि एकमेव वाक्यं वक्तुं शक्नोति वा सर्वं मिलित्वा?
I can't understand.
You said five sentences. Now you make these five sentences. Can you make it into one sentence?
Nandini pibati tyajati.
Pitwa. And Nandini
pitwa. Nandini pibatwa. Nandini
pitwa. Nandini pibatwa na. Pitwa.
Pitwa. नन्दिनी
तथा न. नन्दिनी एकवारमेव वक्तव्यं. नन्दिनी पीत्वा. एकक्षणम् एकक्षणं. नन्दिनी श्रोतु. प्रथमं श्रोतु. श्रोतु. नन्दिनी पीत्वा त्यक्त्वा दृष्ट्वा उपविश्य ददाति.
नन्दिनी पीत्वा नन्दिनी दृष्ट्वा नन्दिनी
पुनः शृणोतु पुनः शृणोतु. लिसन अगेन लिसन अगेन. एकवचनं. टेक अ डीप ब्रेथ रिलैक्स लिसन. हा वाक्यानि पञ्चवाक्यानि अस्ति. नन्दिनी पिबति नन्दिनी त्यजति नन्दिनी पश्यति नन्दिनी उपविशति नन्दिनी ददाति. पञ्चवाक्यानि सन्ति. इदानीं नन्दिनी पीत्वा त्यक्त्वा दृष्ट्वा उपविश्य ददाति. इदानीं वदतु.
नन्दिनी पीत्वा त्यक्त्वा दृष्ट्वा उपविश्य ददाति.
उत्तमम् उत्तमम् उत्तमम्. भवन्तः संस्कृतम् इदानीं ज्ञातुं शक्नोति. धन्यवादः
धन्यवादः.
उत्तमम् उत्तमं. विना वेदं विना गीतां रामायणीं कथां विना 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 वेदं विना गीतां विना रामायणीं कथां विना कवि कालिदासं भारतं भारतं नहि. तत्र वीडियो अस्ति वीडियो अस्ति किल तत्र संसद्भवतु. हा पश्यतु वयं किता जुलै टु सेवेन्त् डे. हा सेवेन्त् डे अपि तत्रापि प्रथमं तु 70 पीपल् वयं श्रुतवन्तः. तत्र आडियो विजुवल् प्राब्लम् टेक्निकल् इश्यूस् सर्वम् आसीत्. तदपि सर्वं आफ्टर् आल् दट् ओन्लि 5 अवर्स् आफ् आक्चुवल् लर्निङ्ग् 5 अवर्स् आफ् लर्निङ्ग्. वयम् एकं श्लोकं सम्यक् रीत्या ज्ञातुं शक्नुवन्तः. विना वेदं विना वेदम् विना गीतां गीता भगवद्गीता विना गीता विना रामायणीं कथां रामायणं कथां विना विना कवि कालिदासं भारतं
भारतं okay okay without all this bharat is not our bharat.
Shastam bahu sarala asti kya bahu bahu sarala asti bahu sarala anantaram itopi ekam mama swarya adati bakah shweto bakah api shweta asti shweta itse shweta varna
right.
Bakah bakah itse jagati la swat bakah
green
बकः श्वेतः बकः श्वेतः हंसः अपि श्वेतः हंसश्वेतो बकश्वेतो हंसश्वेतो बकश्वेतो को वेदो हंसबकयोः. वयं तत् न पठितवन्तः हंसबकयोः. वि आर् नाट् रामरामयोः. वि आर् नाट् लर्न् रामयोः. परन्तु बकयोः टु अमङ्ग् द टु हंसबकयोः भेदः कः अस्ति. भेदः नीरक्षीरविवेके. इदानीं बालिका उक्तवती किल अहं क्षीरं पिबामि. क्षीरम् इत्युक्ते दुग्धं दुग्धं. नीरमित्युक्ते जलम्. नीरक्षीरविवेकेतु नीरक्षीरविवेकेतु हंस हंसो बको बकः. वयं सर्वे सामान्यजना एव. वयं सर्वे अस्माकं बुद्धिः सर्वे सर्वा अहमपि भवती सदृश भवती अपि मम सदृश एव. परन्तु अस्माकं द्वयोः भेदः कुत्र अस्ति? विवेके अस्ति. अहम् उत्तमा भवति अतः इति न वदामि अहं. देट् इस् नाट् वाट् ऐ एम् ट्रैङ्ग् टु से. अस्माकं वि आल् लुक् द सेम् बट् वेर् डस् आर् डिफ़रेन्स् कम् इन् डिफ़रेन्स् कम्स् इन् इन् आर् पर्सेप्शन् इन् आर् अण्डर्स्टाण्डिङ्ग् देट् इस् वाट् मेक्स् अस् डिफ़रेण्ट्. अहं हंसः श्रेष्ठः बकः अधः अस्ति इति न वदामि. ओके, एव्रिबडि हेस् देयर् ओन् क्वालिटीस्. क्वालिटीस् इस् वाट् डिफैन्स् देम्. इदम् एतत् सर्वं सि वयं केवलं पञ्च घण्टात्मकं वयं संस्कृतं पठितवन्तः, परन्तु इदानीं वयं ज्ञातुं शक्नुवन्ति किल? पठतु. संस्कृतं सरलं वर्तते. वयं अस्माभिः पाठनीयम् अस्ति. So now, what I want you all to do is, how many of you all have the stories that I posted on the course web page? Handy. Tathya Katha Dvayam. Tamra Vajam Se Katha Asti, Mathura Yatra Se Katha Asti. They are the topics for today's class. Who has it? Mahati. Mahati has it. So Mahati has it. And Indubhaji also has it. Sujana also has it. Put it up. So the first story, Tamrabhajam, Mahati, Anantara, Indu and Sujana.
I also have.
Okay, we need only three. Next, Karthik Mahade, Bhavan, next Katha, okay? For next Katha, I'll call you. Okay, I have listed you for the next Katha. Prathamam Katha, Vayam Katham Pathamaha. कथां पठामः वयम् इदानीं संस्कृतं एतावती दिस् इस् वाट् इस् बीन् डूयिङ्ग् फर् द रेस्ट् आफ़् द डे आल्सो. तव मुखं दृश्यते वा? ऐ डोण्ट् वाण्ट् टु गो टु द पवर् पायिण्ट् सेक्षन् बिकास् देट् वे आर् लूसिङ्ग् योर् फेस्. अहं भवतां मुखं न द्रष्टुं शक्नोमि. इदानीम् अहं भवतः मुखं द्रष्टुं शक्नोमि. ऐ केन् उट् युर् अहं द्रष्टुं शक्नोमि भवतः मुखं सर्वं द्रष्टुं शक्नोमि. ऐ केन् उट् यदा मम स्क्रीन् शेर् भवति then a lot of things I'm missing out. I'm not getting a feedback. As a teacher, I get a feedback by looking at the students' faces. They have understood that interaction of what people are doing. Properly for the people. Artist. Artist api vadanti. Gayakaha vadanti kila? Is this Mr. Subramaniam SBS yada gayati vadanti kila? Clap iti vadanti kila? Kimartham. That is what is giving the algorithm. Performance kathar. Okay? Note that it becomes a lifeless class. Okay, I have a few points to finish. I finish Angachar. Okay, and the recording that is happening is the interaction of us. That I don't know class of the day. That I have to get every Saturday morning, after the morning, every Saturday morning, I need to come to the community for that, right? The first interaction of us is that is for God. So, that is from Aham. Screen share and avoid it, but where you cannot do that, you will do it. So, Takha, Vayam, Mahati, Bhajani, Bhavati, Ekaha, Bhikshukaha, that Katha, Tamra Bhajan, that Katha Patati Va?
Aham Bhagini.
Patati. Sarveshunotu.
Ekaha, Bhikshukaha, Saha Griham Gacchati, भिक्षायाचनां करोति. एकदा सः चिन्तयति, भिक्षाया अहम् अधिकं धनं
सम्पादितवान् अस्मि.
अतः काशीं गत्वा विश्वनाथदर्शनं करिष्यामि इति.
तिष्ठतु. एकः भिक्षुकः, भिक्षां देहि या वदति किल, सः भिक्षुकः. एकः भिक्षुकः अस्ति. भिक्षुकः अस्ति तत्र अस्ति आवश्यकं पदम् आवश्यकं नास्ति. सः गच्छति. कः गच्छति? भिक्षुकः गच्छति. भिक्षुकः किं करोति? भिक्षुकः गच्छति. वयं जानीमः गच्छति, वयं जानीमः. भिक्षुकः कुत्र गच्छति? गृहं गच्छति. गृहम्. भिक्षुकः गृहं गच्छति. अहं कुत्र गच्छामि? अहं नगरं गच्छामि. कार्यालयः कार्यालयम्. विद्यालयः विद्यालयम्. ग्रन्थालयः ग्रन्थालयम्. शाला शाला. उद्यानम् उद्यानम्. वनं वनमेव भवति. अस्तु वा? अहं वनं गच्छामि. अहं उद्यानं गच्छामि. तत् यत्र पुस्तकं गणे ये ये शब्दः सन्ति ते तथैव भवति. यत्र फोर् गणात् रैट्, फोर् गणात् मध्ये यत्र तत् पुस्तकं गणे अस्ति किल तत् तथैव भवति. अहं वनं गच्छामि, अहं नगरं गच्छामि, अहं अहं कुत्र गच्छामि? नगरं
ग्रन्थालयं.
हा, गृहं गच्छामि. अतः रामगणे अस्ति वाक्यपदानि. विद्यालयः ग्रन्थालयः शौचालयः अस्ति किल तत् अम् 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 भवति. विद्यालयं ग्रन्थालयं शौचालयम् इति भवति. सीतागणे अस्ति किल? सीतागणे अस्ति किल? शाला मथुरा इति अस्ति किल? तत्र मथुरां शालाम् इति भवति. इति भवति. कुत्र भिक्षुकः कुत्र गच्छति? भिक्षुकः गृहं गच्छति. अपरमस्ति काशी शब्दः. जानकी शब्दः अस्ति किल? जानकी गणे यदि ये ये पदानि भवन्ति तत्रापि भवति. काशी काशी काशी. कन्याकुमारी कन्याकुमारी
कन्याकुमारी
कन्याकुमारी कन्याकुमारी इति भवति. भिक्षुकः किं कुत्र कुत्र गच्छति? गृहम् एकं गृहं गच्छति, पुनः एकं गृहं गच्छति, पुनः गृहं 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 गच्छति. भिक्षायाचनां किं करोति? भिक्षायाचनां
याचना करोति.
भिक्षायाचना 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 करोति. सीतागणे सीतागणे भिक्षायाचनात् भिक्षायाचनापत्रं सीतागणे अस्ति. तत्र भिक्षायाचनाम् भिक्षुकः किं करोति? भिक्षुकः भिक्षायाचनां करोति. एकदा सः तत्रैव सः सः देट् इस् वै ऐ टेल् यू डोण्ट् डू ट्रान्स्लेशन्. अहम् अहं पाठितवती पठितवती किल सः मम सर्वदा मम द्वारा उद्घाटितमेव अस्तु. अस्तु, अहं पूर्वं पाठितवती. सः शिवः, एषः एषः गणेशः. तस्मिन् समये शिवः दाट् दाट् इति सर्वे पृष्टवन्तः. ऐ डि नाट् से दाट्. ओके, सो मेनि आफ् योर् से दाट्. ओके, इदानीं सः चिन्तयति प्रयोगः अस्ति. सो वट् ऐ गोण्ट् डु दाट् इस् थिङ्किङ्ग्. तत्र हि भवति किल? देट् इस् वै यु से देट् इस् ट्रान्स्लेशन् मास्तु इति. ट्रान्स्लेशन् यु मीन्स् अ गुड् हेण्डल् आफ् बोत् द लाङ्ग्वेजस् देट् यु आर् ट्रान्स्लेटिङ्ग्. देन् ओन्ली यु केन् ट्रान्स्लेट्. अस्तु वा? इफ् यु डु नाट् हेव् मास्टरी आन् बोत् द लाङ्ग्वेजस् यु के नाट् ट्रान्स्लेट्. तदर्थमेव नो ट्रान्स्लेशन् मास्तु. प्रथमं पठतु. सो सः चिन्तयति. If you had you said Saha is that, so that is thinking. Saha na bhaiti na? Who is thinking? No? Saha ekada. Once upon a time, ekada. Saha chintayati. Tatra idanim. Back is not there. Sikha, quote unquote is na? So whenever quote unquote is there, it will be something you said thinking. Usually. Unless it is a poetry or something. So iti. So Saha kim chintayati? Iti. So bhikshaya, bhikshaya, we have not learned that. Okay? We have not learned that form. We are going to learn that form shortly. Underline it again. Tatra eka line. Just because we finish reading the story does not mean that we are done with the story. भवन्तः एव ऐ विल् नाट् बि गिविङ्ग् अप् द स्टोरि अगेन् ओके सो भवन्तः भक्षया सह अटेन् यु हव् टु गो बेक् अण्ड् सी ओ दिस् इस् नाट् इट् मीन्स् अस्तु वा इदानीम् अहं पाठितवती किल विना वेदं विना वेदं वेदः वेदं गीता गीतां रामायणं रामायणीं रामायणी कथा रामायणीं कथां कालिदासः कालिदासं कविः कविम् ओके तदस्मिन्नेव अस्तु I took that intentionally. Coming. Okay? So, bhinnam bhavati. Change bhavati bhinnam. So, that you have to make a note of it. That's a new form that you have learned. So, make a note of it. Vikshaya aham. Vikshaya is only when we are not learned that form. Okay? So, vikshaya. Bhiksha asti kila? Bhiksha, etat sarvam, bhiksha, all the dhanaka papers are graham, gatva, bhiksha yachati. He keeps on asking for bhiksha. Tatra ekagrihini asti. Ekagrihini, kim dadati? Annam dadati. So, bhikshaya annam praatam. So that table that just learned that form. Jack and Jim and Jack, we did not know and is a continent, we did not know anything. We just learned it like that. Yeah, so aham paathyam. Kinchit agra bhavati. Bhikshaya annam praptam. So bhiksha karthi. Bhiksha karthi. So bhikshaya annam praptam. So ka eka dhirini annam dhati. So annam bhikshaya praptam. Kaupi vastram dhati. Jirna vastra. Oor vastrani dhati. वस्त्रं प्राप्नोति धनमपि भवति कोऽपि धनं ददाति धनमपि भवति तद्धनं भिक्षकः किं करोति एकः ताम्रभाजक ताम्रम् इत्युक्ते कापर् वेसल् मध्ये स्थापयति अन्नं खादति वस्त्रं धरति वस्त्रं धरति अन्नं खादति परन्तु धनं धनस्य उपयोगं नास्ति सः किं करोति एकः ताम्रभाजकः ताम्रभाजकः तु कापर् वेसल् मध्ये स्थापयति किञ्चित् स्व अनन्तरं किं भवति भिक्षया धनं प्राप्तवान् किल भिक्षया धनमस्ति सो भिक्षया प्राप्तं धनं इदानीम् अधिकमस्ति सम्पादितवान् भूतकाले ऐ आल्रेडि सम्पादितवान् अहम् अस्मि अतः काशीं गत्वा प्रथमं काशीं गच्छामि विश्वनाथदर्शनं करोमि काशीं गच्छामि विश्वनाथदर्शनं करिष्यामि काशीं गमिष्यामि विश्वनाथदर्शनं करिष्यामि भिक्षुकः एकः एव ओन्लि वन् पर्सन् भिक्षुकः तो भिक्षुकः प्रथमं किमेव करोति काशीं
काशीं गत्वा
अनन्तरं किं करिष्यति काशीं कः अस्ति विश्वनाथः अस्ति
विश्वनाथः
अस्ति विश्वनाथः अस्ति विश्वनाथस्य दर्शनं करिष्यामि इति तत्र पदं द्वयमस्ति पदं द्वयं वयं योजयामः अहं काशीं गत्वा अतः सः काशीं गच्छति सः तिरुपति किं गच्छति काशीं गच्छति
सः काशीं गच्छति देवदर्शनतः पूर्वं स्नानं कर्तुम् इच्छति सः अतः सः गङ्गानदीं गच्छति स्नानसमये चोरः मम धनं अपहरति चेत् कष्टं खलु इति सः चिन्तयति अनन्तरं सः एकम् उपायं करोति. अहं गर्तं कृत्वा सिक्तायां धनपात्रं स्थापयामि. उपरि एकं शिवलिङ्गं स्थापयामि. तदा मम धनपात्रं कोऽपि न स्पर्शति. सः तत् स्पर्शति इति. सः तथैव करोति. स्थानार्थं गच्छति.
सः काशीं गच्छति. अत्र किमपि नूतनं नास्ति. वयं सर्वे पठितवन्तः. किमपि नूतनमस्ति. काशीं गच्छति. दर्शनतः तत्र अण्डर्लैन् करोतु. नूतनपदं वयम् अग्रे गच्छामः. यदा अहं पाठयामि तत्र तस्मिन् समये गत्वा पुनः दर्शयतु. ओ चिन्तयतु. दर्शनतः तत्रापि एकं रेखाम् अण्डर्लैन् करोतु. दर्शनतः पूर्वं अत्र बिफोर् पूर्वं पूर्वम् इदानीमपि विजयमहोदय पृष्टवान् आसीत् किञ्चित् पूर्वं कथा हौ यु से बिफोर् सो दर्शनतः पूर्वं दर्शनतः तत्र दर्शनम् अस्ति. दर्शनतः वर्ड् चेञ्ज् कथं चेञ्ज् तत्र रूल्स् किमस्ति वयम् अग्रे पठामः. सो दर्शनतः पूर्वं स्नानं नूतनपदं नास्ति. स्नानं कर्तुम् इच्छामि. इदानीं वयं कर्तुं जानीमः एवं कर्तुं तत्र किं भवति. स्नानम् अनन्तरं भवति. इच्छा प्रथमं भवति. अहम् इच्छामि. अहं स्नानं करोमि. अहम् इष्ट्वा करोमि. देट् इस् द रैट् वे आफ् डू इट्. ओके. तत्र सीक्वेन्स् किमपि भिन्नं नास्ति. प्रथमं फस्ट् दट् इच्छा इस् कमिङ्ग्. प्रथमम् इच्छा अस्ति. अनन्तरं स्नानं करोमि. सेकेण्ड् इस् द स्नानम्. ओके. अहम् इष्ट्वा स्नानं करोमि. तत्र सीक्वेन्स् मध्ये भिन्नं किमपि नास्ति. परन्तु वेर् इस् द एम्फसिस्? एम्फसिस् इस् इन् द इच्छा. लैकिङ्ग् मध्ये अस्ति. इच्छा इस् आन् द एम्फसिस् आफ् द लैकिङ्ग्. अत्र एम्फसिस् इस् नाट् आन् द लैकिङ्ग्. Emphasis is on the snanam. Okay? Snanam. He first emphasizes on the snanam. Icha is the thing that is leading to it, but snanam is what is more important. So, tadartham, snanam kartham, snanartham. Snanam kartham, icchati. Saha, icchati, saha snanam karoti. प्रथमम् इच्छा भवति. अनन्तरं स्नानं भवति. परन्तु इम्पार्टेन्स् कुत्र अस्ति? स्नानार्थं. स्नानस्य स्नानं क्रियापदस्य इम्पार्टेन्स् अधिकमस्ति. सो तदर्थं वी से दट् फस्ट्. ओके. स्नानं कर्तुम् इच्छति सः. सः इत्युक्ते सप्तशिक्षकः. अवगतम्? डिड् यू अण्डर्स्टाण्ड्? देन् द डिफरेन्स् बिट्वीन् द त्वा एण्ड् तुम्. Okay.
So, Saha is, Bichu is Saha there. So, Bichu has gone to Kasi.
Bichuka is Saha. So, once you said Bichuka, for, even in English, he is a beggar. There was a beggar. He ever comes from Bichuka. Pronoun is Bichuka. That's it.
From where is this? She is reading the story, madam. Story. The Manti is reading, no? From where she is reading? I am not able to get it.
तत्र मम कोर्स् वेब् पेज् मध्ये अस्ति. कोर्स् वेब् पेज्
मध्ये.
उत्तमप्रश्नः. तत्र संस्कृते तत्र सीक्वेन्स् मध्ये किमपि चेञ्ज् नास्ति. ओके. रामः रामः रावणं हरति. हरति रामः रावणं. रावणं रामः हरति. तत्र किमपि रावणः हरति न हन्ति. रामः रावणं हन्ति. हन्ति रावणं रावणः. तत्र सीक्वेन्स् मध्ये किमपि चेञ्ज् यु केन् पुट् द सीक्वेन्स् आफ् एनीवे. ओके. श्रवणार्थं कथं, हौ डस् इट् लुक् ब्यूटिफुल्? हौ डस् इट् लुक् Tell again. Tat vayam chintanam karniya. So if you put that saha in the middle of a sentence, you may not understand. We have to sit and calculate. Okay, we have to decipher. Iti bhavati. So tatva, tetattu, lekhana shayi. It depends, it goes to the individual writer. How the writer is going to write it. That is what is there in shlokas. In Sanskrit shloka, that is what you have to decipher. Okay? So, emphasis is more of the
beauty.
Asta. Amavadaya, puchitu. Sulanavaya Mahavadaya, puchitu. Vijayamadavji, puchitu.
Madam, it is saha kasim gachati. It should be saha kasim gatavan.
It is sarvam present tense, It's keeping astu bhavan kartum shaknuti gatavan. That you can take that as an assignment. Convert the whole thing into a past tense. This is the
second line should be dev darshanam purvam asthanam kartum ichati saha. Saha deva darshanam taha purva snanam kurtam ichati. The saha is in the end, not in the beginning.
That is what I just asked. That's why I just answered. In Sanskrit, it doesn't make any difference. You can put it in any sequence. So writer. Okay, as long as you want. Now, if I have deva darshanam purvam saha snanam kartum ichati. So, shuddha meva. Atri kimapi dosha nasti. If I would have written, I would have written it. Aswa?
Thank you.
Dhanyavada. Adhirachava? Snana samaye. Samaye. Vayam patranta. Mane. Mane. Dila? Putrati. Asande. Did you do asande? Putra asande. Patranta hava? If you have not learned, you will learn that shortly. I, according to my memory, we have learned that. Asandaha, bhavati kutya upavishati, aham asande upavishami. Asande. So asande is why I am not particular, that is the next topic that I will do. Okay? So, samaye. Samaye. Snana samaye. Yada saha snanam karoti, tasmin samaye chorha. Chorha kim karoti, dalam apaharati. Harati is the apaharati, enhancement of harati. Apaharati. Tatra apa upasarga asti. Tatra vyakarnam asti that you will not be learning any place. Level 2 madhya. Apaharati associated with these things. Chase, no chase. We are going to do that shortly. Chase. Aham jalam vibhavi. Jalam vibhavi chase, vipasa na bhavati. Upanetram harami chase, Rashtu Shaknuni. No check, not Rashtu Shaknuni. Check, no check. And that's a small thing you will learn. Check, Kashtam Khalu. Kashtam Khalu is a slang. Okay? Are you coming with me now? You're coming with me now. That no, does it have any meaning, any sense? There's no. Tatra meaning not Kila. Tatra. Kila Khalu. Kopi, there is no. It's a style of speaking. Tatra mama sutana samaye choraha mama dhanam apaharati chet kashtam khalu iti saha chintayati. Quote unquote aham kintavati purvam anantaram after that saha ekam upayam karoti ekam upayam aihi aha gartam itukte hold kritva prathamam hold karomi gartam karomi dhanapatram sthapayami. Sikata is the sand. So aham sikataya in the sand. Sikataya will learn. That is the next topic we are going to learn. Tatrapi sikataya mapi ekam underline sthapayitu. Snana samaye sikataya, both are same. Okay, tatra ekam underline sthapayitu. Aham gartum kritva sikataya dhanapatra. Mama dhanapatra mapi kira dhanapatra. Dhanapatram tatra sthapayami. Upari ekam shivalingam. Etattu kashi asti. Kashi Vishwanathasya sthanam asti kila. Tatra shivalingam. Aham tatra shivalingam ekam sthapayami. Sikataha sand asti. Sand ekam hole krutavati. हा कृतवान् होल् कृतवान् तत्र तत्र एकत्र धनपात्रं स्थापयित्वा तस्य उपरि एक शिवलिङ्गस्य निर्माणं करोमि इति तदा मम धनपात्रं कोऽपि न स्पृशति स्पृशति टच् हा इति स तथैव करोति स्नानार्थं गच्छति हा स्नानं कर्तुं गच्छति किमर्थं स्नानार्थं हा स्नानार्थम् इदम् एक रौण्ड् दे सः किमर्थं गच्छति सः स्नानार्थं गच्छति हा इदानीं महती एव भवती एव पठतु भगिनि ओके वि हेव् गाट् अ टेम्पो नौ महती एव पठतु अग्रिमसप्ताहे ऐ गिव् टु समबडी
अनन्तरम् अनन्तरम् एकः यात्रिकः आगच्छति एकः स्नानं करोति तीरे एकं शिवलिङ्गम् अस्ति अतः काश्यां परम्परा अस्ति स्नानात् पूर्वं शिवलिङ्गं करणीयम् इति सः चिन्तयति शिवलिङ्गं निर्माति स्नानार्थं गच्छति अपरः आगच्छति सः अपि एव करोति अनन्ते भिक्षुकः स्नानं कृत्वा आगत्य पश्यति तीरे सहस्रशः शिवलिङ्गानि मया कृतं शिवलिङ्गं कुत्र इति सः न जानाति मम धनं नष्टम् इति खेदम् अनुभवति सः
अनन्तरम् एकः मुद्रां दोषम् अस्ति यात्रिका अस्ति यात्रिका इति लिखितमस्ति यात्रिका भवितव्यं तत्र अनन्तरम् आफ्टर् दट् अनन्तरम् एकः यात्रिकः यात्रिका यः यात्रा करोति सः यात्रिकः यः यात्रा यात्रा इत्युक्ते भवन्तः वयं सर्वे जानीमः यात्रा इत्युक्ते कुत्रापि एतत् एकं नगरमस्ति ह्यूस्टन् नगरतः डालस् नगरं यात्रा मथुरानगरतः काशीनगरं यात्रा अस्ति किल यः यात्रा करोति सः यात्रिकः स यात्रिकः आगच्छति गच्छति आगच्छति एकः स्नानं करोति सः पश्यति एकः स्नानं करोति एकः शिवलिङ्गमस्ति एकः स्नानं करोति एकः शिवलिङ्गमस्ति ओ काश्यां काश्यां तत्र अण्डर्लैन् करोतु काशी हा काशी काशी काश्यां अण्डर्लैन् करोतु काश्यां व्यवलन् रैट् व्यवलन् दर्शनमिति अण्डर्लैन् काश्यां सुब नद्यां नद्यां हैविलन् नद्यां नो यस् ओके तीरे तीरे समीपे काश्याम् अनन्तरं स्थिकतायां they're all same form okay they're all the same form if you have not learned that form already I'll look into the recording if you have not learned that form already that is the next topic that we are going to learn so kashya kashi madhye kashi nagara madhye nagare nagare or kashi nagarasya visheshatah asti iti cha chintayati kashi nagarasya parampara evam asti snanat purva snanat स्नानात् पूर्वं तत्र तथापि नूतनपदं स्नानात् दट् इस् अ डिफ्रेण्ट् फार्म् पदं टेक्स् अ डिफ्रेण्ट् फार्म् इन् सान्स्क्रिट् स्नानः स्नानं स्नानात् तथा भवति स्नानः पदम् एवं भवति स्नानः स्नानः हे स्नान स्नानं स्नानेन स्नानात् स्नानात् स्नानाय स्नानात् स्नानस्य स्नाने इति भवति सो पदं द वर्ड्स् चेञ्ज् तत् कथं कथं चेञ्ज् भवति इति वयं पठामः अग्रे अग्रे पठामः स्नानात् पूर्वं स्नानात् पूर्वं वा स्नानतः पूर्वम् आल्सो द्वयोः समानमेव यु केन् ऐदर् से स्नानतः पूर्वम् वा स्नानात् पूर्वं द्वयोः समानमेव स्नानात् अस्ति तत्रापि मुद्रणदोषमस्ति स्नानात् स्नानात् लिखितमस्ति स्नानात् नास्ति स्नानात् स्नानात् पूर्वं शिवलिङ्गं करणीयम् इति सः चिन्तयति शिवलिङ्गं निर्माति इत्युक्ते निर्माणं करोति शिवलिङ्गस्य निर्माणं करोति स्नानार्थं गच्छति. किमर्थं गच्छति? स्नानार्थं गच्छति. अपरः आगच्छति, इतोपि एकः जलम् आगच्छति, अपरः आगच्छति, सः अपि एवमेव करोति. अन्ते भिक्षुकः स्नानं कृत्वा आगत्य पश्यति. अत्र क्रियापदं त्रयमस्ति, स्नानं करोति, आगच्छति. भिक्षुकः स्नानं करोति, भिक्षुकः आगच्छति, भिक्षुकः पश्यति. त्री सेण्टेन्सेस् दे. सो भिक्षुकः स्नानं करोति, भिक्षुकः आगच्छति, भिक्षुकः पश्यति. वाक्यत्रयमस्ति, सो त्रयं वयं मिलित्वा एकं पदं कुर्मः. कृत्वा आगत्य पश्यति. तीरे, तीरे जस्ट् लैक् what we have learned before, okay? So if you have not done it already, we will do it again, but in next class. Shitire sahasrashah, sahasrashah is a thousand, thousand shivalingani santi, shivalingani, thousand shivalingani santi. Mayakritam shivalingam, mayakritam, tatra aham maya, aham, aham sabdase rupamasti maya. Tatra kartri prayoga, karmani prayoga, okay? Active voice, inactive voice asti, sanskriti. Active voice, inactive voice. Sanskrita bahavaha inactive voice eva bhavati. Most of it is inactive voice. Or not inactive, active passive, sorry, active, passive. Active voice and passive voice. Angla bhashayam api asti. I did it, it was done by me. Passive. So in Sanskrita, in English, most of it is in active. In Sanskrit, most of it is in passive. That asti sanskritasya vaishishtya. Okay, Angla Vashaya, Manikya, even in Hindi, any languages, all the languages, most of the languages, Manikya, Mera hai, Manikya, Manikya, but in Sanskritam, Chet Karyam Abhavat, Tasi importance asti, Mama importance asti, Aham Patitavati, I taught, Mane Padaya, Mane Sanskrit Padaya, Maya Sanskritam Patitam, okay? तत्र किमस्ति, संस्कृतपठनस्य पाठनस्य, मया संस्कृतं पाठितं. सो ऐ टाक् संस्कृत, देट् आल्सो अर्थं सेम् एव. ऐ ओन्लि टाक्, मैने संस्कृत पढाया, ओके, संस्कृत मेरे द्वारा पढाया गया, ओके. सो दैट टू बोथ ऑफ द वन इज एक्टिव एंड पैसिव, ओके. एक्टिव वॉइस मध्ये किमपि अस्ति, मम इम्पार्टेन्स् इस् आन् मी, ऐ टाक् संस्कृत, इम्पार्टेन्स् इस् आन् मी, संस्कृत वास् टाट् बै मी. तत्र इम्पार्टेन्स् किम् अस्ति, लर्निङ्ग् आफ़् सैन्स्कृत, द टीचिङ्ग् इस् मोर् इम्पार्टेण्ट्. हू डिड् इट्? ऐ डिड् इट्, दट् इस् कमिङ्ग् बेक्. सो मोस्ट् लाङ्ग्वेजेस् आर् आक्टिव्. संस्कृतस्य वैशिष्ट्यमस्ति, तत्र पासिव् वाय्स् भवति, कर्तरि कर्मणि प्रयोगः इति वदामः, संस्कृते कर्मणि प्रयोगः इति वदामः. सो बहवः सेण्टेन्सस् अस्माकं एतत् मध्ये पासिव् वाय्स् एव भवति. इवन् कथायामपि पासिव् वाय्स् that because of Sanskrit knowledge, because of your thinking towards Sanskrit, that's why we say Sanskrit is Sanskrit. Okay? So, cultural differences bhavati. Jeevanam se parivartanam bhavati. So, that's why Sanskrit is like Kritva, automatically agachati. That's why mind api Kritva automatically change bhavati. Your life focus will also change. So, even if you can easily written that, aha, shindalingam kutavan, you can easily written that. But it's by writing, by reading, that's not agachati. By default, it goes to that default mode. So, maya kritam shivalingam. Maya kritam shivalingam that was made by me. Kutra. Sanskrita bahavaha prayoga. Most of the prayogas are in karmani. So, to write in kartari, we have to put a lot of effort. Not me. I am just a small level shikshika. शिक्षिका एव अस्मि. आचार्यः गुरोः ये सन्ति तेषां बहु कष्टकरं भवति तेषां कर्तृप्रयोगे लेखनीयं, बिकास् दे आर् थिङ्किङ्ग् इट् सेल्फ् इट् कर्मणि, ओके, दे फोकस् मोर् आन् द आक्षन्, नाट् आन् द कर्त, नाट् आन् द हू पर्सन्स्. तदर्थमेव अस्माकं बहवः शास्त्रेषु कः लिखितवान् इति न ज्ञातम्. इवन् पाणिनि अपि वयं न जानीमः, पाणिनि महोदयस्य जननं कुत्र अस्ति, वेरी लेस् नालेज् वी हेव् अबौट् पाणिनि आल्सो, बट् हिस् ग्रामर् इस् वाट् इस् बीङ्ग् टाक्ट् अबौट्. पाणिनि कुत्र अस्ति वयं, बट् पैथागोरस् एव फस्ट्, पैथागोरस् एव भवति केवलम् अनन्तरं पैथागोरस् एव भवति. अस्माकं कल्चर् एव तथा अस्ति. सो मया कृतं शिवलिङ्गं कुत्र इति सः न जानाति. मया मम धनं नष्टम् इति सः खेदम् अनुभवति. तत्र एकः श्लोकमस्ति, गतानुगतिको गतिको लोके न कोऽपि स्परमार्थिकः गङ्गासैकतलिङ्गेन नष्टं मे ताम्रभाजनम् इति एकः श्लोकम् गतानुगतिको लोके. तद् संस्कृते यदा संस्कृतपण्डिताः सर्वम् एवमेव सुभाषितरूपेणैव वदति. ओके, लाट् आफ् नीति सर्वं लघु लघु पङ्क्त्ये ते वदन्ति. ओके, अत्र किमस्ति, गतानुगतुको गतिको लोके, गतानुगतिको लोके, यः एकं करोति स दृष्ट्वा अनन्तरम् अपरः अपि करोति, सः अपि करोति, अहम् अन्यान् दृष्ट्वा न चिन्तयति किमर्थं तत् कृतवान् इति न चिन्तयति. सः करोति, अहमपि करोमि. सः संस्कृतं पठति, अहमपि संस्कृतं पठामि. किमर्थं संस्कृतं पठनं वयं न जानीमः. सः करोति तदर्थम् एव अहमपि करोमि. सो दैटि सेवेन् नैन्टि सेवेन् सोनि स्टुडेण्ट् सैन्ड् अप् इस् अ फ्री लिङ्क् सैन्ड् अप्. सो वि आर् आल्सो सैनिङ्ग् अप्. किमर्थं संस्कृतं तत्र किमपि ज्ञानं नास्ति. दे हेवान् टु कम् एण्ड् तेषां वाल्यूम् अपि नाट् इण्ट्रेस्टेड्. तत्र बहवः बेक्ग्रौण्ड् नास्ति भवति, बट् बिकास् दे आर् नाट् इण्ट्रेस्टिङ्ग् वेरिङ्ग् सैन्स् देर् इस् अ फ्री लिङ्क् देर् यु क्लिक् आन् देट् गेट् इन् टु इट् एवरिबडि आर् डूयिङ्ग् इट् देर् आल्सो डूयिङ्ग् इट्. सो तत्सर्वमेव चिन्तनं करणीयं. वै आर् वि डूयिङ्ग् इट्? Why are we thinking of that form? Are we very interested in learning Sanskrit? Okay, now today my problem is that I cannot actively participate in the class. So I listen to the recording. Tathana chintayati. Okay, but the feeling asti mundaram kurmaha, sthapayama, you put it on and then let us play. Yes, and your children will have our own fun. Somebody else is teaching, somebody else is talking, somebody else is saying, let them do whatever they want. So tatha asti asmakam chintayati. वयं किमर्थं कुर्मः? वयलि भूयि वयलि मीटिङ्ग् यत् वयलि तत्र कोऽपि न चिन्तनं करोति. सो गतानुगतितो लोके, सो एव्रिबडि अग्रे आनोषति. तत्र किमपि किमभवत् न कोऽपि परमार्थिकः, कोऽपि न चिन्तयति आत्मात्या, कोऽपि न चिन्तयति वयं किमर्थम् एतत् कुर्मः इति कोऽपि न चिन्तयति. तदर्थं किम् अभवत्? गङ्गासैकतलिङ्गे न, बिकास् आफ् दिस् गङ्गा सैकतलिङ्गं सर्वे कुर्वन्ति, अहमपि करोमि. हा, सर्वे एकमेकम् शिवलिङ्गं कृतवान्, निर्माणं कृतवन्तः, तस्य कृते किम् अभवत्? नष्टं मे ताम्रभाजनं, मम धनं नष्टम्. अन्ये जनाः चिन्तनं न कुर्वन्ति, तस्य कारणेन कम् अभवत्? मम दोषः अभवत्. स्पष्टम्? First of all, I wanted to do a lot of stories, but I'm glad that I did only one story. Okay, so tatra itopi ekah story asti. Ha, so mathura yatra api sthapitam asti. So agrima saptahe va na atase agre saptahe. I need to now teach some concepts. Okay, reading from separate stories. So agrima saptahe va tase anantaram va vayam sometime down the line mathura yatram api evam eva pathamah. भवन्तः यदि किञ्चित् चालेञ्जिङ्ग् होम्वर्क् इच्छन्ति चेत् एतत् एव कथां स्वीकृत्य, टेक् द स्टोरि, एतत् एव कथां स्वीकृत्य, एतत् अस्ति कथा अस्ति वर्तमानकाले, इट् इस् इन् प्रेसेण्ट् टेन्स्, कृपया भूतकाले ट्रान्स्लेट् कुर्वन्तु. एवम् एकः भिक्षुकः अस्ति, एकः भिक्षुकः आसीत्, सः गृहं गच्छति, सः गृहं गतवान्, भिक्षायाचनं करोति, भिक्षायाचनं कृतवान् इति भूतकाले भवन्तः करोतु. श्लोकास् यु कनाट् डु एनिथिङ्ग्, डोण्ट् डु एनिथिङ्ग् फर् श्लोकास्. दे आर् आल् वित् दीस् श्लोकास् लेट् अस् कम् डौन् टु अस् फ्रम् जनरेशन्स्. कः उक्तवान्, किमर्थम् उक्तवान् वयं न जानीमः, परन्तु इट् हस् कम् डौन् टु अस् एस् अ ट्रेडिशन्. सो तत्र किमपि चेञ्जस् मा करोतु. स्टोरि यत्र कथा अस्ति तस्य कथायाः परिवर्तनं करोतु भूतकाले. फोर् दोस् आफ् यू हू वाण्ट् टु लर्न्, टेक् चालेञ्जिङ्ग् असैन्मेण्ट्स्. अस्तु वा? हा, सो वयं ऐ वाण्ट् टु आल्सो गो ओवर् द परीक्षा असेस्मेण्ट्स्. भवन्तः जानन्ति टुडे ऐ विल् पोस्ट् टु मोर् असेस्मेण्ट्स्. ओके, तस्य पूर्वं किञ्चित् केवलम् एकमेव नूतनम् अंश, ऐ वोण्ट् टु टीच् कण्टिन्यूस् एव्रिडे, एकः नूतनम् अंशं पाठयामि. एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश सङ्ख्याः सन्ति. रेकार्डिङ्ग् शृणोतु, रेकार्डिङ्ग् श्रुत्वा भवन्तः पुनः पुनापि पठितुं शक्नोति. एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश. सो वी केन् गो आन् अण्टिल् 25, 30, 100 अपि कर्तुं शक्नुमः, परन्तु अद्य अग्रिमसप्ताहे विल् डु ओन्ली सङ्ख्या आर् विल् डु टेक् अप् सम् टापिक् इन् देट्. ओके, एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश समयः. एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश. ओके, समयः षट् वादनम्. षट्, एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश. ओके, पञ्चवादनम्, पञ्चवादनं, षट् वादनं, सप्तवादनम्, अष्टवादनं, नववादनम्, एकादशवादनं, द्वादशवादनम्. अहं पञ्चवादने उत्तिष्ठामि. अग्रिमकक्षायां भवतः दिनचर्यां मया श्रावयतु. Tell me, now make related sentences. अस्तु वा. सो नौ मेक् अहम् उत्तिष्ठामि. अत्र नूतनं किमपि नास्ति. नूतनम् इदानीम् अग्रिमसप्ताहे नूतनं किं भवति? अहं पञ्चवादने उत्तिष्ठामि. इफ् इट् इस् मार्निङ्ग् प्रातःकाले, ईविनिङ्ग् सायङ्काले. अहं प्रातःकाले पञ्चवादने उत्तिष्ठामि. अहं प्रातःकाले चतुर्वादने उत्तिष्ठामि. अहं पञ्च प्रातःकाले चतुर्वादने उत्तिष्ठामि. पञ्चवादने योगाभ्यासं करोमि. षट्वादने चायं पिबामि. सप्तवादने अल्पाहारं खादामि. अष्टवादने कार्यालयं गच्छामि. इदानीं तु वयं जानीमः कार्यालयम् इति. अष्टवादने कार्यालयं गच्छामि. नववादने कार्यं करोमि. कार्यालये कार्यं करोमि. तट् इस् द नेक्स्ट् कमिङ्ग् टापिक्. ओके, कार्यं करोमि. अष्टवादने कार्यं करोमि. नववादने गृहमागच्छामि. दशवादने भोजनं करिष्यामि. एकादशवादने निद्रां करोमि. दिनचर्या सूपर् दिनचर्या कर्तुं शक्नुवन्ति किल. अन्येषामपि मम आर्यपुत्रः सतीशः, सतीशः सप्त पञ्च चतुर्वादने उत्तिष्ठति. पञ्च षट् वादने दन्तधावनं टेक् दशमिति दन्तधावनं करोति. अष्ट नववादने स्नानं करोति. अपि कर्तुं शक्नुमः. अन्यत् अहं करोमि चेत् मम करोमि मी 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 अपरः इति भवति.
In past tense it is
बहुवचनम् मास्तु. बहुवचनम् एकवचनमेव करोति. अस्तु, अनन्तरं तत्र श्रोतु. पञ्च पञ्च पञ्चतः किमपि भिन्नं नास्ति. पञ्चवादनं पञ्चवादनं पञ्चवादने अहं पञ्चवादने उत्तिष्ठामि. सो पञ्चवादने पञ्च षट् सप्त अष्ट नव तत्र किमपि क्लेशः नास्ति. इट् इस् जस्ट् लैक् योर् नम्बर्स्. एकं वादनं न एकवादनं. एकं द्वे त्रीणि चत्वारि किञ्चित् भिन्नमस्ति. 1, 2, 3, 4 भिन्नमस्ति. एकम् एकं द्वे त्रीणि चत्वारि अस्ति किल. एकवादनं, द्विवादनं, द्वे वादनं न द्विवादनं, त्रिवादनं, चतुर्वादनं. स्पष्टम्? अग्रे अग्रिमसप्ताहे वयं सपा 9:15, 8:15, 8:30 अग्रे अग्रे पठामः. अस्तु वा, इदानीम् एतावदेव. स्पष्टम्?
Lingas. So he is not able to, every yatrika has built a shivalinga. Is that the story there?
Okay. People don't think why they are doing something. So tadasameva vadanti chintanam karote kimartham etat vayam kurmaha chintanam karote chintitva karoti chet apara anyesham api labhadayaka bhavati bhavatam krute api labhadayaka bhavati. Don't follow anything blindly. तदस्ति कथायाः सारांशः. कथारूपेण इफ् ऐ कीप् आन् टेलिङ्ग् यू भवन्तः एतत् मा करोतु मा करोतु मा करोतु यु नाट् लर्न् तथा च अस्माकं संस्कृतिः एवं भवति ओके धर्म वेद तत्र रामायण महाभारतम् अपरः किमपि नास्ति इट्स् नथिङ्ग् डिफ्रेण्ट् ओके भगवद्गीता अपि किमपि डिफ्रेण्ट् नास्ति तत्र वेदा एव अस्ति वेदानामेव वेदा वेदा आल् दिस् थिङ्ग्स् आर् सेट् ओके अस्माकं ग्रहणार्थम् ओके धर्मं चर सत्यं वद सत्यम् इत्युक्ते किं वाट् इस् सत्यं वाट् इस् धर्मम् ओके तत् किम् अस्ति सो तस्य व्याख्यानमेव रामायणमहाभारतमेव अस्ति एका कथारूपेण अस्माभिः ते पाठयन्ति ओके सो लुक् अट् राम ये कृतवान् तद्धर्मम् ओके कृष्णः यदि कृतवान् तद्धर्मम् ओके सो रामस्य कृते रामः किमपि रामस्य लैफ् मध्ये किमपि दोषः एव नासीत् उत्तमपुरुषः सः किमपि दोषः न कृतवान् पुरुषार्थः स किं उत्तमम् तस्य जीवने एव्रिथिङ्ग् वास् पर्फेक्ट् एव्रिथिङ्ग् देर् वास् नो कन्फ्यूशन् रैट् वा राङ्ग् वा किमपि कन्फ्यूशन् नास्ति नासीत् कृष्णस्य समये तदेव भिन्नमस्ति किल कृष्णः अपि धार्मिकः अस्ति धर्मस्य पालनं कृष्णः अपि कृतवान् धर्मस्य पालनं भीष्मः अपि कृतवान् बट् वै भगवद्गीता कृष्ण वैदिकी कृष्णः कृष्णः जानन्ति कुत्र त्यक्तव्यं कुत्र गृहीतव्यम् इति भीष्मोक्तं मम धर्मः अहं कदापि विवाहं न करिष्यामि मम धर्मः मम धर्मः मम धर्मः स्वविवाहं न कृतवान् ओके धर्मस्य पालनं कृतवान् धर्म धर्मस्य दट् यु हेव् टु हेव् 16,000 वैव्स् या परन्तु तत्र कृष्णः कृतवान् कुत्र भव ब्रह्म धर्मः त्यक्तव्यं कुत्र धर्मः स्वीकर्तव्यम् इति कृष्णः ज्ञातवान् ओके
धर्मस्थापनार्थं कपटनाटकं कपटनाटकं कृष्णस्य
सो कृष्णः किमर्थं 16,000 वैव्स् स्वीकृतवान् तस्मिन् समये एकः असुरः अस्ति नरकसुरः कृतवान् असुरस्य नाम न जानामि एकः असुरः तस्मिन् समये टैम् जरासन्धः मगध देशस्य जरासन्धः वाट् अ मोस्ट् पवर्फुल् अण्ड् यू वाण्ट् टु बिकम् द किङ्ग् आफ् द होल् इण्डिया तस्मिन् कान्टिनेण्ट् पूर्वं सः तस्य आधीनं कर्तुम् इच्छति सः सो उग्रसेनं हि मेरिमेण्ट् बहुजन अण्ड् उग्रसेनस्य पुत्रः कंसः कंसः तत्र हि गेव् इस् टु वैफ् टु हि गेव् इस् टु डाटर् हि गाट् इस् गाट् इन् मेरिड् टु कंसः अण्ड् मेड् इन् द किङ्ग् देर् कंसः इस् इस् इन् इस् इन् इन् हेण्ड् ओके तथैव सः अण्ड् देन् आल् अदर् प्रिन्सस् इन् दट् एरिया हि मेड् देम् प्रिस्नर्स् इति कृतवान् जरासन्धः तत्र आसामध्ये इतोपि एकः राजा आसीत् तस्य नाम न स्मरामि कृतवती सः किं कृतवान् सः तत्र प्रिन्स् हि वास् अ वुमन् एस् दट् हि टुक् आल् द प्रिन्सस् अण्ड् चन्द्रवस् प्रेसिडेण्ट् नरकासुरः केवलं न स्मरामि नरकासुरः सः तत्र तान् सर्वान् अपहरित हि मेड् आल् द प्रिन्सस् हि मेड् देम् अस् अ सो सः तत्र स्थापितः ओके इदानीं कृष्णस्य समीपं हि हेड् टु ब्रिङ्ग् आल् द किङ्ग्स् बेक् तस्य समीपं द्वः हि हेड् टु विकल्पः किं करणीयं प्रथमं यस् फ्री द प्रिन्सस् आर् यस् फ्री द प्रिन्सस् इति चिन्तनमासीत् ओके सो तस्मिन् समये सः तस्य उपयोगं कृतवान् ज्ञानस्य उपयोगं कृत्वा लेट् मी गोण्ट् टु द प्रिन्सस् केवलं ते कन्याः अस्ति बालिकाः सन्ति ओके दीस् मेन् ओके किञ्चित् विलम्बेन करिष्यामि चेत् अस्तु चिन्ता नास्ति दे विल् बिकम् चेत् बट् वुमेन् दे आर् लैक् गाड् ओके दे लघुबालिकाः सन्ति तेषां प्रथमं वयं तत्र तेषां विमोचनं कुर्मः इति सो सः गत्वा तत् तेषां विमोचनं कृतवान् विमोचनं कृतवान् तु बालिकाः उक्तवन्तः इदानीम् अस्माकं जीवनमेव नास्ति वि डोण्ट् हेव् नो वाट् आर् हौ विल् वि गो औट् सैड् एण्ड् विस् वि लिव् वित् अन् वुमनैजर् फार् सो मेनि इयर्स् ओके अस्माकं रेस्पेक्ट् एव नास्ति हू आन् दिस् वर्ल्ड् इस् गोन् टु रेस्पेक्ट् अस् सीता केवलम् एकमेव राक्षसस्य गृहं गत्वा आगतवती ओके तस्याः एव देट् वास् हेपन् सीता वि नो वाट् हेपन् टु सीता शी वेण्ट् ओन्लि टु वन् राक्षस after to this process there and that was Sita Jiva I mean she was taken away okay Sita yaha katha vayam karun jana jani ma after to well known womanizer ओके तेषां गृहतः हौस् तेषां कः इदानीं रक्षत् अस्ति ते उक्तवन्तः न वयं तु डोण्ट् फ्री अस् ओके अस्माकं तु रेस्पेक्ट् एव नास्ति लेट् अस् बि प्रिसनर्स् अवर् लैफ् इस् गान् एनिवे कृष्णा उक्तवान् न भवतः ऐ विल् गिव् यू रेस्पेक्ट् यू विल् बि फ्रोम् टुडे आन्वर्ड्स् यू विल् बि काल्ड् अस् क्वीन्स् आफ् कृष्ण हि गेव् देम् अ स्टेटस् सो तत्र धत कीवत् होल्डान् होल्डान् टु धर्म ओके अहं केवलम् एकमेव स्वीकरोमि तथैव अस्ति अस्माकं धर्मः इति सदास्तवान् कृष्ण धर्मं किमर्थं कृष्णस्य कथाम् उक्तवती न जानामि अस्तु हा धर्मकेषु हा सो धर्मस्य एतत् आल्वेस् देर् आर् व्याख्यानं धर्मस्य व्याख्यानं वयं कथमपि कर्तुं शक्नुमः okay that is what we Buddha Dharma is saying have only one life that is what Krishna interpreted Dharma says you have to protect that is what Krishna interpreted but what we are going to do who can take astu astu va so dharma se vyakhyana neva asti so ramayana mahabharata aparam kimapi nasti vedaha eva vedaha hakumu samvidhi vedam vedam asti tatesha mula katha rupena asmabhi patkaranta tatheva asti ekat katha asti अन्येषाम् अन्ये कुर्वन्ति तत् एव वयमपि कुर्मः चेत् अस्माकमपि दोषः भवति अन्येषामपि दोषः भवति इति कथारूपेण तत्र अस्माभिः बोधितम् रियलैस् स्टोरि व्यवस्था वदतु विजयमाताजी वदतु भवान् हस्तम् उपरि कृतवान् वदतु विजयमाताजी
इदानीं अन्ते भिक्षुकः स्नानं कृत्वा आगत्य पश्यति आगत्य और् आगत्वा
आगत्य तत्र आ उपसर्गः अस्ति किल आगत्य
नेक्स्ट् वन् तीरे सहस्रशः शिवलिङ्गानि सन्ति
What is new? I'm not an animal. What is new? Arya. Astu. Vayam atreya savyamaha. Vayam atreya savyamaha. No. It was that. No. It was that. Vayam atreya viramam. Viramam shikurmaha. Viramam shikurmaha. अस्तु वयं विरामयामः अत्र महती भगिनी भवती महती वा मास्तु आर्या आर्या भगिनी आर्या चन्यसे अन्तिमं श्लोकं सर्वे भवन्तु सुखिनः
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखमाप्नुयात् ॐ
शान्ति
शान्ति शान्तिः
उत्तमम् उत्तमम् अस्तु सो किमपि प्रश्नः अस्ति चेत् अहम् अत्र